इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। पश्चिम बंगालस्य द्वयोः विधानसभा क्षेत्रयोः 15 मतदान केन्द्रेषु पुनर्मतदाने अपराह्न त्रिवादन पर्यन्तं 270% अधिकं मतदानं समंकितम्। निर्वाचनायोगेन पश्चिम बंगाल राज्ये सुरक्षायाः सुदृढीकरणाय सहैव मतगणना केन्द्राणां परितः शान्ति व्यवस्थायाः पर्यवेक्षणाय 65% मतगणना निरीक्षकाः 77 आरक्षक निरीक्षकाश्च नियोजिताः। छत्तीसगढ़ राज्य कांकेर नारायणपुर जनपद सीम्नी आईईडी विस्फोटने सुरक्षाबलस्य त्रयः कर्मचारिणः वीरगतिम् अवाप्नुवन् एकश्च व्रणितो जातः। आईपीएल क्रिकेट स्पर्धायाम् अद्य सायं चेन्नई सुपर किंग्स दलं तथा मुंबई इंडियंस दलं इत्यनयोः मध्ये प्रतिस्पर्धा भविष्यति। पश्चिम बंगाले दक्षिण 24 परगना जनपदस्य 15 मतदान केन्द्रेषु पुनर्मतदानं सम्पन्नम्। अस्मिन् मगराहाट पश्चिम क्षेत्रस्य 11 केन्द्राणि तथा डायमंड हार्बर क्षेत्रस्य 4 मतदान केन्द्राणि सम्मिलितानि सन्ति। अन्तिम सूचनायाः प्राप्तिं यावत् 270.14% मतदानं समंकितानि। उभयोः विधानसभा क्षेत्रयोः मतदानं प्रायः शान्तिपूर्णं समभवत्। सम्बद्ध निर्वाचनाधिकारिणां तथा पर्यवेक्षकाणां प्रतिवेदनानाम् आधारेण निर्वाचनायोगेन इदं पुनर्मतदानम् आदिष्टम्। विगतमासस्य 31 दिनांके विधानसभानिर्वाचनस्य द्वितीयचरणे अस्मिन् मतदानकेन्द्रे मतदानं सुसम्पन्नम्। पश्चिमबंगाल केरल तमिलनाडु असमेषु तथैव पुदुच्चेरी संघराज्यक्षेत्रे जातानां विधानसभानिर्वाचनानां मतगणना सोमवासरे भविष्यति। असमराज्यस्य 27.1%, केरलस्य 44.1%, सहैव पुदुच्चेरी राज्यस्य 30 आसनानां कृते एप्रिल मासस्य 9 दिनांके मतदानम् अभवत्। तमिलनाडुराज्यस्य 34.2% विधानसभाक्षेत्राणां तथा पश्चिमबंगालराज्यस्य प्रथमचरणस्य 52.1% कृते एप्रिल मासस्य 23 दिनांके मतदानम् अभवत्। निर्वाचनायोगेन पश्चिम बंगाल राज्ये अतिरिक्त गणना पर्यवेक्षकाः आरक्षक पर्यवेक्षकाश्च नियोजिताः। गणना पर्यवेक्षकाणां साहाय्यं कर्तुम् आहत्य 65.1% यावत् अतिरिक्त गणना पर्यवेक्षकाः नियोजिताः सन्ति। 77 आरक्षक पर्यवेक्षकाः सुरक्षाव्यवस्थायाः सुदृढीकरणाय गणना केन्द्राणां परितः विविधि व्यवस्था संस्थापनाय निरीक्षणाय च नियोजिताः। छत्तीसगढ़ राज्ये कांकेर नारायणपुर जनपद सीम्नी आईईडी विस्फोटने सुरक्षाबलस्य त्रयः कर्मचारिणः वीरगतिम् अवाप्नुवन् एकश्च व्रणितो जातः। इयं घटना तदा समभवत् यदा डिस्ट्रिक्ट रिजर्व गार्ड इत्यस्य कर्मचारिणः एकस्य विस्फोटकयन्त्रस्य निष्क्रियकरणे निरताः आसन्। आरक्षक विभागात् प्राप्त सूचनानुसारं छोट बेठिया थाना क्षेत्रान्तर्गतं माइनशोधनं क्षेत्रप्रभुत्वं तथा अन्वेषण अभियानस्य एकं डीआरजी दलं नियुक्तमासीत्। अभियानकाले यदा आईईडी उपकरणं निष्क्रियते स्म तदा तस्य विस्फोटः समभवत्। विस्फोटनेन निरीक्षकः सुखराम वाटी तथा कृष्णकोमरा एवं संजय गढ़पाले इत्येते गंभीररूपेण व्रणिताः अभवन्, यैः अनन्तरं प्राणत्यागः कृतः। अन्यः व्रणितः आरक्षकः परमानन्दकोमरा चिकित्सालये उपचाराधीनः वर्तते। बस्तरक्षेत्रस्य आरक्षकमहानिरीक्षकः सुन्दरराज पी इत्यनेन प्रोक्तं यत् आत्मसमर्पणं कृतवतां माओवादिनां तथा अन्यस्रोतसाम् आधारेण गतमासेषु बस्तरजनपदे बृहत्संख्यायां आईईडी उपकरणानि प्राप्तानि निष्क्रियञ्च कृतानि। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। लोकसभाध्यक्षेण ओमबिरलावर्येण षड्विंशत्यधिकद्विसहस्रसप्तविंशत्यधिकद्विसहस्रवर्षयोः कृते चतुर्णां संसदीयसमितीनां पुनर्गठनं कृतम्। लोकसभायाः भाजपासदस्यः डॉ संजय जायसवालः प्राक्कलनसमितेः अध्यक्षत्वेन नियुक्तः। सार्वजनिक उपक्रमसमित्याः नेतृत्वं भाजपेति दलस्य सांसदः वैजयन्ती पाण्ड्या करिष्यति। विरलावर्यः लोकसभायाः कांग्रेससदस्यं केसी वेणुगोपालं लोकलेखासमित्याः अध्यक्षत्वेन नियुक्तवान्। अनुसूचितजाति अनुसूचितजनजाति कल्याणसमित्याः नेतृत्वं लोकसभायाः भाजपासदस्यः फग्गन सिंह कुलस्ते वर्येण भविष्यति। गुजरातराज्यस्य सूरतनगरे वाइब्रेंट गुजरात क्षेत्रीय शिखर सम्मेलनं सम्पन्नम्। अस्मिन् तावत् त्रिपञ्चाशत्सहस्राधिकत्रिलक्षकोटिरुप्यतोप्यधिकानां द्विनवत्यधिकसप्तशताधिकद्विसहस्रसहमतिज्ञापनप्रपत्रेषु हस्ताक्षरम् अभवत्। अस्य शिखरसम्मेलनस्य समापनसत्रं सम्बोधयन् केन्द्रीयमन्त्री जेपी नड्डा अवदत् यत् भारतेन वैश्विकापूर्तिशृङ्खलायाः बाधाः अवसरेषु परिवर्तयित्वा आत्मनिर्भर उत्पादनकेन्द्ररूपेण समेधनीयम्। तेन सबलं प्रोक्तं यत् देशस्य उत्पादनक्षमतायाः संवर्धनं स्थायित्वस्य निर्माणं च देशस्य सर्वोच्च प्राथमिकता अस्ति। तेन अग्रे प्रोक्तं यत् एतादृशाणि क्षेत्रीयसम्मेलनानि विकसितभारतस्य लक्ष्यं प्राप्तुं महतीं भूमिकां निर्वहन्ति। अत्रावसरे उपस्थितान् जनान् सम्बोधयन् गुजरातराज्यस्य उपमुख्यमन्त्री हर्षसंघवी अवदत् यत् अस्मिन् सम्मेलने हस्ताक्षरीकृतैः सन्धिभिः आगामि त्रिषु वर्षेषु 2.2 लक्षयुवानः प्रत्यक्षोद्योगस्य अवसरान् प्राप्स्यन्ति। भारतस्य सर्वोच्चन्यायालयेन पश्चिमबंगालनिर्वाचने मतगणना पर्यवेक्षकत्वेन केवलं केन्द्रसर्वकारस्य कर्मचारिणां नियुक्तौ निर्वाचनायोगस्य निर्णये हस्तक्षेपं निराकृतम्। न्यायमूर्तिना पीएस नरसिंहा तथा न्यायमूर्तिना जायमाल्य बागची इत्यनयोः पीठेन निर्दिष्टं यत् आयोगस्य दिशानिर्देशानां कठोरतया पालनं भवेत्। अयं निर्णयः तृणमूल कांग्रेसदलस्य कृते एकः महत्तरः आघातः अस्ति येन अस्य निर्णयस्य विरोधः कृतः आसीत्। न्यायालयस्य विचारविमर्शकाले न्यायमूर्तिना बागची इत्यमुना प्रोक्तं यत् अधिकारिणां चयनस्य अधिकारः निर्वाचनायोगस्य पार्श्वे एव वर्तते। तेन एतदपि प्रोक्तं यत् प्रत्येकं मतगणनापीठिकायां पूर्वमेव अभिकर्तारः पर्यवेक्षकाः तथा निरीक्षकाः उपस्थिताः भवन्ति। एवं स्थितौ केन्द्रकर्मचारिणाम् उपस्थित्याः विषये दर्शितानां चिन्तनानाम् उपरि तेन प्रश्नचिह्नमपि उत्थापितम्। उत्तरप्रदेशे 27+2000तमवर्षस्य गृहसूच्यां केन्द्रितं जनगणनायाः प्रथमं चरणम् अस्मिन् मासे 22 दिनांके आरभ्यते। मे मासस्य 7 दिनांकात् स्वगणनायाः सौविध्यं प्राप्यते। लखनऊनगरे वार्ताहरसम्मेलने सेंसस ऑपरेशन्स इत्यस्य राज्यनिर्देशिका तथा मुख्यप्राधान सेंसस अधिकारिणा शीतलवर्मा इत्यनया प्रोक्तं यत् नागरिकाः अस्य मासस्य 7 दिनांकात् आधिकारिकजालपटले पञ्जीकरणं कृत्वा स्वगणनासौकर्यस्य माध्यमेन भागं ग्रहीतुं शक्नुवन्ति। प्रक्रियां समाप्यते एकं विशिष्टं कूटसंकेतं प्राप्स्यन्ति यच्च गृहगणनायाः समये प्रगणकेन सह अवश्यं विनिमयी करणीयम्। सूचना प्रसारण मन्त्रालयः सम्प्रेषण विशेषज्ञं प्रसून जोशी इत्यमुं भारतस्य सार्वजनिक सेवा प्रसारकस्य प्रसार भारती इत्यस्य अध्यक्षत्वेन नियुक्तवान्। श्रीजोशिनः कृतित्वे समादृतानि चलच्चित्र गीतानि विज्ञापन अभियानानि सामाजिक अनुरणित कथाकथनानि च सन्ति। भारतसर्वकारेण स्वनागरिकाणां कृते तक्षण आपत्सूचनासेवायै स्वदेशीयतन्त्रज्ञानस्य उपयोगेन स्वस्य प्रकोष्ठप्रसारव्यवस्था समारब्धा। तस्मिन्नेव क्रमे अद्य मध्याह्ने नागरिकाणां चलदूरभाषीययन्त्रेषु परीक्षणार्थं ध्वनिसूचनया सह सन्देशाः प्रेषिताः। आईपीएल क्रिकेट क्रीडायां चेन्नई सुपर किंग्स दलम् अद्य सायंकाले 7:30 चेन्नई नगरे मुंबई इंडियंस दलं सम्मुखीकरिष्यति। इति वार्ताः।